अथ षष्ठोऽध्यायः ध्यानम्। ॐ नागाधीश्वर विस्तरा फणिफणोत्तम सोरुरत्नावले भास्वदेहलता दिवाकर निभाम नेत्रतयोद्भासिता माला कुंभकपालनीरजकरा चंद्रार्धचूडांपरा सर्वगेश्वर भैरवांकनिलयां पद्मावती चिंतये।
ॐ ऋषिरुवाच कर्ण्यवचो देव्या सदूतो मर्षपूरितः समाचष्ट समागम्य दैत्यराजाय विस्तरा तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराष्ट्रतः स क्रोधः प्राह दैत्यानामधिपम् धूम्रलोचनम्। हे धूम्रलोचनाशु त्वम् स्वसैन्यपरिवारितः कामानय बलाद्दुष्टाम् केशाकर्षण विह्वलाम् तत्परित्राणदः कश्चिद्यदिवो तिष्ठते परः सहन्तव्यो मरो वापि यक्षो गन्धर्व एव वा। ऋषिरुवाच तेनाज्ञप्तस्ततः शीघ्रम् स दैत्यो धूम्रलोचनः वृतशश्चा सहस्राणामसुराणाम् द्रुतम् ययो सदृष्ट्वाताम् ततो देवीम् तुहिनाचल संस्थिताम् जगादोच्चैतया हीति मूलम् शुम्भनि शुम्भयो न चेत्प्रीत्याद्य भवति मद्भर्तारम् पैष्यति ततो बलान्नयाम्येष केशाकर्षण विह्वलाम्। देव्युवाच दैत्येश्वरेण प्रहितो बलवान् बलसंवृतः बलान्नयसि मामेवम् ततः किं ते करोम्यहम्। ऋषिरुवाच इत्युक्त सोऽभ्यधावत्तामसुरो धूम्रलोचनः हूङ्कारेणैव तम् भस्म सा चकाराम्बिका ततः अथ क्रोधम् महासैन्यम् असुराणाम् तथाम्बिका ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरस्वधे ततो धुतशटः कोपात् कृत्वा नागम् सुभैरवम् पपातासुरसेनायाम् सिंहो देव्या स्ववाहनः कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् आक्रम्य चाधरेणान्यान् सजघान् महासुरान् केषाञ्चित् पाटयामास नखैकोष्ठानि केसरे तथा कलप्रहारेण शिरांसि कृतवान् पृथक् दीक्षिन्न बाहुशिरसः तत्फलं सर्वं क्षयं नीतं महात्मना तेन केसरिणा देव्या वाहनेनाति कोऽपि न श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनं बलं च क्षयितं कृत्स्नम् देवी केसरिणा ततः चुकोपदैत्याधिपतिः शुम्भः प्रस्फुरितार्धर आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ तत्र गच्छत् गत्वा च सा समानीयताम् लघु केशेष्वाश्रेष्य बद्ध्वा वा यदि वः संशयो युधे तदा शेषायुधे सर्वैरसुरैर्विनिहन्यताम् तस्यां हतायां दुष्टायां सिंहे च विनिपातिते शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तां थाम्बिकाम् ॐ श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये षष्ठ श्रीदुर्गार्पणमस्तु श्रीदुर्गार्पणमस्तु श्रीदुर्गार्पणमस्तु।